एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। दक्षिण एशियक राष्ट्राणां निर्वाचन निकायानां फेम्बोसा नाम्नो मञ्चस्य द्वादशं सम्मेलनं काष्ठमण्डपे प्रारब्धमस्ति। सम्मेलनं पूर्वेद्यु काष्ठमण्डपे उद्घाटयन् प्रधानमन्त्री केपी शर्मा ओली निर्वाचनेन जनतायाः इच्छाकांक्षाणां प्रतिबिम्बनस्य कारणेन मताधिकारस्य सम्मानकरणं समेषां राज्यानां दायित्वमस्तीति प्रावोचत्। जलवायोः परिवर्तनस्य कारणेन मानवजीवने सम्भावितेषु समाहोयेषु मध्ये लोकतन्त्रस्य अभिन्नाङ्गस्य रूपेण स्थितायाः निर्वाचन प्रक्रियायाः अग्रेवर्धनं समेषां दायित्वमस्तीति प्रधानमन्त्री ओली धारणां व्यक्त। सम्मेलनेन फेम्बोसा मञ्चस्य वडापत्रस्य प्रभावकारिणी क्रियान्वयनाय अतिरिक्त सहयोग प्राप्स्यते इति प्रधानमन्त्री ओली विश्वासं व्यक्तवान्। कार्यक्रमे प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया फेम्बोसा मञ्चस्य द्वादश सम्मेलनस्य आयोजनायै नेपालेन अवसर प्राप्त इत्युक्त्वा हर्षं व्यक्तवान्। सम्मेलने भूटान मालदीव श्रीलंका भारत देशानां निर्वाचनायोगानां उच्चाधिकारिभि निर्वाचनं स्वच्छं निष्पक्षं विश्वसनीयं च विधातुं निर्वाचनस्य नवीनतम विषयेष् संयुक्त धारणायाः निर्माणाय बलं प्रदत्तम् आसीत्। नेकपा एमाले दलस्य पोलिस ब्यूरो निकायस्योपवेशेन सपरामर्शं दलस्य कार्ययोजना पारितीकृता अस्ति। ललितपुरस्य च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे उपवेशे दलस्य कार्ययोजनामाधृत्य पोलिट ब्यूरो सदस्यै दत्तान् परामर्शान् समाविश्य सचिवालय उपवेशेन अन्तिम निर्णय विधास्यते इति प्रचार विभाग प्रमुख राजेन्द्र गौतम सूचयति। उपवेशे एकपञ्चाशत् पोलिट ब्यूरो सदस्या महासचिवेन शंकर पोखरेलेन प्रस्तुता दलस्य कार्ययोजनामाधृत्य परामर्शं दत्तवन्तः। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं भाषायोगस्य अध्यक्षः गोपाल ठाकुरः आयोगस्य गतविक्रमवर्षीयं वार्षिकं प्रतिवेदनं प्रस्तुतवान् अस्ति। प्रतिवेदनं प्रस्तुवन् अध्यक्षः ठाकुरः देशस्य संघीय संरचनायाः अनुसारेण संघीय प्रादेशिकस्तरेष् स्थानीयस्तरेष् च भाषासम्बद्धायाः नीतेः निर्माणस्य विधेः निर्माणस्य भाषायाः अध्ययनाय विकासाय च संस्थागत सुदृढीकरणस्य प्रारभणं सम्भूतमस्तीति अभाषत। अध्यक्षः ठाकुरः अष्टसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयायाः जनगणनायाः अनुसारेण नेपाले चतुर्विंशत्युत्तरैकशतं भाषाः प्रचलिता सन्तीति अज्ञापयत्। गृहमन्त्री रमेश लेखकः निगदति सर्वकारस्य प्राथमिकतायां नागरिकेभ्यः सेवायाः प्रदानं वर्तते। कञ्चनपुर जनपदस्य महेन्द्रनगरस्य नेपाल प्रहरी प्रदेश कार्यालयस्य नवनिर्मितं भवनम् उद्घाटयन् मन्त्री लेखकः विपुल दलद्वयेन नेपाली कांग्रेस नेकपा एमाले दलाभ्यां सप्तसूत्रीयं सहमतिपत्रं निर्माय नागरिकाणां हिताय कार्यं विधातुं मिलित्वा नूतन सर्वकारः संघटितोऽस्तीति समस्पष्टयत्। गृहमन्त्री लेखकः पश्चात्तन समये देशे दृष्टायाः राजनीतिका स्थिरतायाः तज्जन्यस्य देशे द्वैविध्यस्य नागरिकेषु दृष्टस्य नैराश्यस्य च समाप्तिं कृत्वा विकास कार्याय तीव्रतां प्रदातुं विपुल दलद्वयं मेलनीयमभूदिति स्पष्टीकृतवान्। प्रतिनिधि सभा अन्तर्गतायाः विधि न्याय मानवाधिकार समित्या विधायन व्यवस्थापन सम्बद्धं गतविक्रमवर्षीयं विधेयकं पारितीकृतं वर्तते। समितेः स्तनोपवेशे विधेयकस्य प्रकरणगत विमर्शनं विधाय संशोधनं प्रतिवेदनं पारितीकृतमस्तीति समितेः सभापतिः विमला सुवेदी असूचयत्। सभापतिः सुवेदी प्रथमवारं अधिनियमं व्यवस्थापयितुं विधायन व्यवस्थापन समिति सम्बद्धस्य विधेयक निर्माणं विहितमस्तीति ज्ञापितवती। अस्यैव भाद्रमासस्य चतुर्विंशे दिवसे आयोक्ष्यमाणे प्रतिनिधिसभायाः उपवेशे विधेयकमिदं प्रस्तुष्यते इति सभापतिः सुवेदी असूचयत्। संसदीय श्रवण समित्या रूस साउदी अरब दक्षिण अफ्रीका दक्षिण कोरिया देशानां कृते प्रस्तावितानां राजदूतानां संसदीय श्रवणं विहितमस्ति। समितेः ह्यस्तनोपवेशेन रूसदेशस्य कृते प्रस्तावितस्य राजदूतस्य जंगबहादुर चौहान इत्यस्य साउदी अरब देशस्य कृते प्रस्तावितस्य राजदूतस्य नरेश विक्रम ढकालस्य दक्षिण अफ्रीका देशस्य कृते प्रस्तावितस्य राजदूतस्य प्राध्यापकस्य डाक्टर कपिलमान श्रेष्ठस्य दक्षिण कोरिया देशस्य कृते प्रस्तावितस्य राजदूतस्य शिवमाया तुम्बाहम्फे इत्यस्याश्च श्रवणं विहितं वर्तते। संसदीय श्रवणस्य क्रमे प्रस्तावितः राजदूतः स्वकीयं चिन्तनम् अवधारणाम् अनुभवनञ्च प्रस्तुत्य आत्मना लब्धदायित्वस्य देशस्य नेपालस्य च मध्ये कूटनीतिक सम्बन्धम् दृढयितुं नागरिकस्तरे सम्बन्धम् विस्तारयितुं च कृषि प्रविधि निवेश पर्यटनादिषु क्षेत्रेषु भूमिका निर्वक्ष्यते इति अभाषन्त। भाद्र शुक्ल द्वितीयायाः हरितालिकायाः पूर्वेद्युः व्रतोपवासाय शक्ति प्राप्त्यर्थं नेपाली हिन्दू महिलाभिः दर नाम्ना प्रथितं विशेष भोजनम् अद्य भुज्यते। अस्मिन् दिने महिलाभिः विशिष्टं मिष्टं गरिष्ठं भोजनम् हरितालिका व्रताय बल प्राप्त्यर्थं समोदनृत्यं विधीयते इति समाचारः।